सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणं श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्। इत्युक्ते दानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव कण्ठस्य भूषणं, शास्त्राणां श्रवणम् एव कर्णस्य भूषणम्। अतः अन्यैः भूषणैः किं प्रयोजनम् इति सुभाषितकारः अस्मान् बोधयति। इत्युक्ते अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति इति अर्थः। अत्र सुभाषितकारः अस्मान् बोधयति, सः किं वदति, शास्त्राणां श्रवणम् एव कर्णस्य भूषणम्। कर्णः इत्युक्ते श्रवणेन्द्रियं, कर्णस्य भूषणं शास्त्राणां श्रवणम् एव। परन्तु अन्यानि शास्त्राणि अवगन्तुं प्रथमतया व्याकरणशास्त्रस्य अवगमनम् आवश्यकम्। तदर्थं वयं सर्वे अत्र मिलित्वा संस्कृतभाषायाः व्याकरणशास्त्रस्य अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः। उत्तमं। गते सप्ताहे वयं क्तावत् प्रत्ययान्तानां विषये किञ्चित् पठितवन्तः। क्तावत् प्रत्ययान्तानि इत्युक्ते भूतकालरूपाणां विषये पठितवन्तः, अपि च भविष्यत्कालरूपाणि इति विषयः गते सप्ताहे एव आरब्धः, वयं किञ्चित् अधीतवन्तः। भूतकाल भविष्यत्कालरूपाणि इत्युक्ते लकारः कः इत्युक्ते नृत् लकारः इति वदामः, वर्तमानकालः इत्युक्ते लट् लकारः, भूतकालः इत्युक्ते लङ् लकारः, भविष्यत्कालः इत्युक्ते लृट् लकारः। लृट् लकारं दर्शयितुं वयं तत्र भविष्यत्कालरूपाणि, भविष्यत्कालरूपाणि इत्युक्ते लृट् लकाररूपाणि एव, तत्र स एव तदर्थः। अनन्तरम् अत्र गृहपाठः आसीत्, तत्र एकचत्वारिंशत्तमे पुटे वयं भविष्यत्कालरूपाणि किञ्चित् पठित्वा तदनन्तरं तत्र एकं परिच्छेदं वन् पेराग्राफ् आल्सो अपि वयं पठितवन्तः। तत्र सुब्रह्मण्यः नाम्ना एकः छात्रः अस्ति, सः किं किं करिष्यति इति लिखितमस्ति, पुस्तके एव दत्तमस्ति। परन्तु अत्र गृहपाठरूपेण भवन्तः सर्वे किं किं कृतवन्तः, अथवा भवन्तः सर्वे किं किं करिष्यन्ति, न कृतवन्तः, अत्र कृतवन्तः न, भवन्तः सर्वे श्वः वा अथवा आगामि सप्ताहे वा आगामि वर्षे वा किं किं करिष्यन्ति इत्यस्मिन् विषये वाक्यानि लिखन्तु, स एव अस्माकम् अभ्यासः। श्रावयन्तु, आरोहन् भवान् श्रावयतु वाक्यानि।
भविष्यत् कालम् आसीत्
अत्र अत्र गृहपाठं भवान् कृतवान् इति उक्तवान्, अत्र भवान् श्वः किं किं करिष्यति इति विषये पञ्चवाक्यानि श्रावयतु।
वयं मन्दिरं गमिष्यामः, आवां विद्यालयं गच्छावः, अहं विपणिं न गमिष्यामि।
कुत्र कुत्र गमिष्यति भवान्?
अहं मन्दिरं गमिष्यामि।
उत्तमं। केन सह गमिष्यति? अथवा कया सह? वदतु, भवान् श्रावयतु, उत्तमम्. अनन्तरं
त्वं किं करिष्यसि? भवान् मां वदिष्यति किम्?
अत्र पश्यतु अरोहन्, त्वं किं करिष्यसि इति भवान् पृष्टवान्, मां पृष्टवान्. तदर्थम् अहं वदामि, अहं श्वः संस्कृतव्याकरणकक्ष्यां गमिष्यामि. अग्रिमं वाक्यं श्रावयतु.
भवान् मां वदिष्यति किम्?
वदिष्यति किम्? उत्तमम्. इतोपि वाक्यानि सन्ति वा? उत्तमम्, उत्तमानि वाक्यानि. कादम्बरी भगिनी श्रावयतु वाक्यानि.
अस्तु, श्वः अहं सङ्गीतं श्रोष्यामि. श्वः अहं पाठशालां न गमिष्यामि. श्वः अहं शीघ्रम् उत्थास्यामि.
उत्थास्यामि, उत्तमम्.
श्वः अहं मन्दं लेखिष्यामि. श्वः अहं पारितोषिकं दास्यामि.
दास्यामि. कस्मै दास्यति भवती पारितोषिकं? किमपि. अस्तु. अनन्तरं
तावदेव.
तावदेव. उत्तमम्, उत्तमानि वाक्यानि, सुन्दराणि वाक्यानि. अनन्तरम् अत्र लक्ष्मी भगिनी भवती श्रावयतु.
श्वः अहं प्रातःकाले 6 उत्थास्यामि. अनन्तरम् अहं काफिं पाष्यामि. अहम् 8 कारयानं चलिष्यामि, कार्यालयं गमिष्यामि.
चालयिष्यामि,
कार्यालयं गमिष्यामि.
अत्र भगिनी पश्यतु, चलिष्यामि भिन्नं पदं, चालयिष्यामि, कारयानं चालयिष्यामि, चालयिष्यामि तत्र पदमस्ति णिजन्तपदं. कारयानं चालयामि, कारयानं चालयिष्यामि. उत्तमम्.
तत्र 6 कार्यं करिष्यामि. 6 कार्यालयतः गृहम् आगमिष्यामि. अहं पाकं करिष्यामि. अनन्तरं 9 दूरदर्शनं द्रक्ष्यामि. भोजनान्तरं निद्रां करिष्यामि.
उत्तमं, भोजनं करिष्यामि. उत्तमम्. अनन्तरम् अत्र राजीवसिंह महोदय भवान् श्रावयतु.
आं भगिनि, अहं स्व न्यूयार्क् नगरे गमिष्यामि.
न्यूयार्क् नगरं गमिष्यामि. अत्र किमर्थं तथा इत्युक्ते, न्यूयार्क् कुत्र गमिष्यति भवान्? अत्र गत्यर्थकधातुः, गम् इति गत्यर्थकधातुः इति कृत्वा तत्र कर्मपदं सम्भवति. नगरम् इति पदं नपुंसकलिङ्गपदम्, अपि च प्रथमविभक्तौ द्वितीयविभक्तौ तस्य रूपं समानम् इति कृत्वा न्यूयार्क् नगरं गमिष्यामि. उत्तमम्.
अहम् अधिपुरुषः मध्याय भोजनाय चलिष्यामि.
क्रियापदं किं महोदय, पुनः एकवारं?
मेलिष्यामि.
मेलिष्यामि. उत्तमम्.
अहं वैद्युतकपत्रं लिखिष्यामि.
पत्रं लेखिष्यामि. किं पत्रं?
वैद्युतकपत्रम् ईमेल्
ओ ईपत्रम् ईमत्रम् ईपत्रं लेखिष्यामि ईपत्रं लेखिष्यामि अनन्तरम्
अहं 6 वादने गृहम् आगच्छामि
गृहम् अत्र 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 लट्लकाररूपं वदतु प्रथमतया वर्तमानकालरूपं वदतु प्रथमतया
आगच्छामि
अधुना भविष्यत्कालरूपं वदतु पुनः
आगमिष्यामि
अत्र तत्र क्लिष्टकरं पदं किमपि नास्ति आ इति उपसर्गः अतः गमिष्यामि आगमिष्यामि अत्र आ इति उपसर्गः केवलं गच्छति गच्छामि परन्तु भविष्यत्कालरूपाणि गमिष्यामि
गमिष्यति
गमिष्यति केवलं तस्मात् पूर्वं केवलम् आ इति उपसर्गं योजयामः आगमिष्यामि
आगमिष्यामि
तावदेव अनन्तरम्
अहं स्व अद्यतन वर्गस्य ध्वनिमुद्रणं श्रोणयामि
अत्र पश्यतु महोदय शृणोमि लट्लकार वर्तमानकालरूपं शृणोमि इति वयं जानीमः परन्तु शृणोमि इति पदस्य भविष्यत्कालरूपं किं भविष्यति
श्रोणयामि
न महोदय रूपं सम्यक् नास्ति कः वदति अत्र कादम्बरी भगिनी वदति वा अत्र शृणोमि इति पदस्य भविष्यत्कालरूपं किं
श्रोष्यामि
श्रोष्यामि किञ्चित् नूतनं पदं वदतु अहं पुनः तदेव वाक्यं वदतु
अहं स्व अद्यतन वर्गस्य ध्वनिमुद्रणं श्रोणयामि
श्रोष्यामि अत्र किमर्थं चेत् अत्र अस्माकं अभ्यासपुस्तके एव अत्र विशेषरूपाणि इति रूपाणि दत्तानि अत्र पश्यतु महोदय अभ्यासपुस्तके शृणोति श्रोष्यति इति रूपमपि दत्तमस्ति अत्र अभ्यास श्रोष्यति पश्यतु अत्र 12.2 भागे शृणोति तस्य रूपं किं
श्रोष्यति
श्रोष्यति अन्यं वाक्यम् अन्यानि वाक्यानि श्रावयतु अस्तु अत्र एकवारं विशेषरूपाणि वदतु महोदय अत्र 12.2 भागे अभ्यासपुस्तके एकवारं वदतु सर्वेषां कृते
पिबति पास्यति ददाति दास्यति जानाति जाश्यति
ज्ञास्यति ज्ञास्यति किमर्थम् इत्युक्ते अत्र अत्र धातुः अस्ति वयं जानीमः धातुः इत्युक्ते क्रियापदस्य मूलरूपं तत्र धातुः अस्ति ज्ञाधातुः ज्ञाधातोः लट्लकाररूपं जानाति लृट् भविष्यत्कालरूपं ज्ञास्यति तथा एव अत्र पिबति पिबति इति क्रियापदमस्ति पिबति इति क्रियापदस्य क्रियापदं पा धातुतः आगतं पा धातुः अस्ति पा दीर्घ आकारान्तधातुः पा धातोः भविष्यत्कालरूपं पास्यति तथा एव ददाति तत्र धातुः अस्ति दा दीर्घ आकारान्तधातुः दा धातुतः दास्यति इति रूपम् आगच्छति ज्ञाधातोः लृट्लकाररूपं ज्ञास्यति इति रूपं परन्तु उत्तमपुरुषे वक्तुमिच्छति चेत् किं वदामः सः जानाति सः ज्ञास्यति परन्तु अहं
जानामि
जानामि अथवा
जानास्यामि
ज्ञास्यामि
ज्ञास्यामि
तावदेव अहं जानामि अहं ज्ञास्यामि तथा वक्तव्यम् अग्रिमं पदं
शृणोति श्रोष्यति
उत्तमपुरुषे वदतु
अहं
शृणोमि
अहं श्रोष्यामि
उत्तमम् अग्रिमं
लिखति लेखिष्यति
अहं लिखामि अहं लिखामि वयं
लिख
बहुवचनरूपं वक्तव्यम् अहं लिखामि वयं
वयं
लिखामः तथा एव अत्र भविष्यत्कालरूपम् अहं लेखिष्यामि वयं
लेखिष्यामः
सुन्दरं तावदेव अनन्तरं मिलति
मेलिष्यति
अत्र पश्यतु महोदय अत्र मिलति मेलिष्यति इति भवति लिखति लेखिष्यति तथा भवति अत्र धातुः अस्ति लिख् धातुः लेखि तथा तत्र गुणकार्यम् इति वदामः गुणकार्यं भूत्वा अत्र लेखिष्यति इति रूपम् आगच्छति तथा एव अत्र श्रुधातुतः श्रु इति शृणोति इति पदं श्रुधातुतः आगतं श्रुधातोः रूपं श्रोष्यति तथा तत्रापि गुणकार्यं भवति मिलति मिल् धातुः मेलिष्यति इति भवति अत्र पृच्छति किं भवति रूपं किम्
पृच्छति प्राधातु
न न महोदय अत्र
पृच्छति प्रक्षयति
पृच्छति इति पदं प्रच् धातुतः आगतं परन्तु तत्र भविष्यत्कालरूपं प्रक्ष्यति तत्र अकारः नास्ति प्रक्ष्यति अत्र क्षकारः अपि च यकारः एकत्र एव दत्तमस्ति प्रक्ष्यति तथा एव त्यक्ष्यति त्यजति इत्यस्य रूपं त्यक्ष्यति शक्नोति
शक्ष्यति
उत्तमम् उपविशति
उपवेक्ष्यति
तत्र क्ष्यति उपवेक्षयति उपवेक्षयति इति न वदामः अत्र सम्यक् रूपम् उपवेक्ष्यति उत्तमम् उत्तिष्ठति तस्य रूपम्
उत्थास्यति
उत्तमं गृह्णाति
गृहीष्यति
तावदेव इत्युक्ते अत्र एतानि विशेषणरूपाणि पूर्वस्मिन् पुटे ये ये शब्दाः सन्ति तेषाम् अपेक्षया एतानि पदानि किञ्चित् भिन्नानि अपि च नूतनानि रूपाणि सम्यक् अवधानं दत्वा पठनीयानि एतानि रूपाणि उत्तमं महोदय अनन्तरम् अत्र सुब्बाराव महोदय भवान् श्रावयतु वाक्यानि
अहं श्वः सप्तवादने गृहतः कार्यालयं लोकयानेन गमिष्यामि कार्यालयतः गृहं सायङ्काले पञ्चवादने प्रत्यागमिष्यामि श्वः सायङ्काले सार्धसप्तवादने मम गृहे समुदायध्यानं करिष्यामः ध्यानकार्यक्रमं
इत्युक्ते सामूहिकध्यानम् इति वदामः वा
आम् सामूहिक
अस्तु
सामूहिकध्यानं करिष्यामः ध्यानकार्यक्रमं कर्तुं मम मित्रं कोलम्बियानगरतः आगमिष्यति श्वः दशवादने निद्रां करिष्यामि.
दशवादने निद्रां करिष्यामि. उत्तमम्, उत्तमानि वाक्यानि. उत्तमं महोदय. अनन्तरं सुचित्रा भगिनी भवती श्रावयतु.
अहं शव षट्वादने उत्तासयामि, प्रक्षालयिष्यामि, पूजयिष्यामि. तदान्तरम् अहं पाकं करिष्यामि, खादिष्यामि, अपि गीतं श्रोषयामि.
श्रोष्यामि,
श्रोष्यामि.
तथा एव उत्थास्यामि.
उत्थास्यामि.
उत्तिष्ठामि इति पदस्य भविष्यत्कालरूपम् उत्थास्यामि.
सपाद अष्टवादने अहं लोकयाने कार्यालयं गमिष्यामि. नववादनतः सार्धपञ्चवादनपर्यन्तम् अहं कार्यालये कार्यं करिष्यामि.
उत्तमं.
सायंकाले षड्वादने अहम् आपणतः परशवप्रयोगपदार्थक्रेषयामि च गृहम् आगमिष्यामि.
अत्र आपणतः किं क्रेष्यति भवती?
परशवप्रयोगपदार्थः पदार्थम्
प्रयोगपदार्थान् क्रेष्यति वा? अत्र पदमस्ति पदार्थः. पदार्थः तस्य बहुवचनरूपं किं? पदार्थाः. भवती किं क्रेष्यति? पदार्थं क्रेष्यति. एकवचने वक्तुमिच्छति चेत् पदार्थं क्रेष्यति, नो चेत् पदार्थान् क्रेष्यामि आपणतः. आपणतः वदतु भगिनि.
तदानीं पाठं समपयिष्यामि, निद्रासयामि च.
अत्र पुनः तदेव वाक्यं श्रावयतु. अहं
तदानीं पाठं समपयिष्यामि. फिनिश् वर्क् पाठम्.
अत्र पश्यतु भगिनि, समापयिष्यामि.
समापयिष्यामि, निद्रासयामि च.
निद्रास्यामि च. अत्र पाठम्, अत्र लट्लकारे वदामश्चेत् अहं पाठं समापयामि, संस्कृतपाठं समापयामि. परन्तु भविष्यत्काले वदामश्चेत् अहं पाठं समापयिष्यामि. अत्र किमस्ति इत्युक्ते सम् इति उपसर्गः, आप् इति धातुः, परन्तु निजन्तरूपम् इति वदामः समापि. समापि इति तत्र निजन्तधातुः आगच्छति. समापयति, समापयति, समापयिष्यति तथा भवति. उत्तमम्. अनन्तरं
तदेव
उमाशङ्करमहोदय उत्तमम्. उमाशङ्करमहोदय भवान् श्रावयतु. लिखितवान् वा महोदय?
अहं मित्रं मिलिष्यामि. मित्रस्य सह
महोदय अत्र महोदय अत्र मेलिष्यामि.
मेलिष्यामि, मेलिष्यामि, मेलिष्यामि. मित्रस्य सह भोजनालयं गमिष्यामि.
मित्रेण सह,
मित्रेण सह,
मित्रेण सह. कुत्र कुत्र गमिष्यति?
भोजनालयम्.
उत्तमं. भोजनालयं गमिष्यामि.
भोजनालये टिफन् खादयिष्यामि.
अत्र भोजनालये अल्पाहारम्, अल्पाहारम् इति वदामः. अल्पाहारं भवान् खादिष्यामि इति पदमस्ति, खादयिष्यामि अपि अस्ति. अत्र तयोर्मध्ये भेदः अस्ति. खादिष्यामि इत्युक्ते अहं खादिष्यामि, परन्तु अन्यं खादयिष्यामि इति अपि वक्तुं शक्नुमः. परन्तु भवान् किं वक्तुमिच्छति तत्र?
मित्रं मित्रम् अहं भोत्
इत्युक्ते खादिष्यामः. अत्र द्विवचने अपि वक्तुं शक्नोति भवान्. द्विवचने वदामश्चेत् किं वदामः? द्विवचने वदामश्चेत् अत्र एकवचने खादिष्यामि, द्विवचने खादिष्यावः, बहुवचने बहुवचने खादिष्यामः. परन्तु अत्र द्विवचने वक्तुमिच्छति चेत् वदतु महोदय.
द्विवचने
आवाम् आवाम्
आवाम् भोजनालये भोजनालये अल्पाहारं खादिष्यावः
खादिष्यावः. उत्तमं तावदेव. अनन्तरं
भोजनालयतः चित्रमन्दिरं गमिष्यामि. चित्रमण्डले चित्रं दृश्यामि
द्रक्ष्यामि द्रक्ष्यामि अत्र पश्यामि पश्यामि तस्य रूपं द्रक्ष्यामि.
द्रक्ष्यामि चित्रमण्डले तः गृहम् आगमिष्यामि.
तावदेव. उत्तमम् उत्तमं महोदय, धन्यवादः. अनन्तरम् अधुना वयम् इतोपि किञ्चित् केवलं भविष्यत्कालरूपाणां विषये किञ्चित् इतोपि अभ्यासं कुर्मः. अत्र कादम्बरी भगिनी, अहं वर्तमानकाले वाक्यं वदामि, भवती किञ्चित् ऊहां कृत्वा भविष्यत्कालरूपाणि वदतु. भविष्यत्काल काले वाक्यस्य परिवर्तनं कृत्वा वदतु, किञ्चित् ऊहां करोतु. अत्र अद्य मङ्गलवासरः अस्ति, श्वः
श्वः
कः वासरः भविष्यति? नो चेत् अत्र भवती जानाति वा अत्र नामानि? अद्य मङ्गलवासरः कः?
बुधवासरः भवति, भविष्यति.
उत्तमं, तावदेव. उत्तमं. अधुना अद्य जून् मासस्य अष्टादशदिनाङ्कः, श्वः कः दिनाङ्कः भविष्यति?
श्वः नवदश दिनाङ्कः भविष्यति.
उत्तमं, श्वः नवदशदिनाङ्कः भविष्यति. उत्तमं भगिनी, तावदेव. अनन्तरम् अत्र लक्ष्मीभगिनी, भवती वदतु अत्र अधुना अधुना अत्र उषः कालः अस्ति, उषः कालस्य अनन्तरं किं भविष्यति साधारणतया? उषः कालः जानाति वा? उत्तमम्. अधुना उषः कालः अस्ति, किञ्चित् ऊहां करोतु. अधुना न, अधुना रात्रिवेला एव, परन्तु अहं केवलम् अभ्यासार्थं वदामि. अधुना उषः कालः अस्ति, तदनन्तरं किं भविष्यति शीघ्रं?
तदनन्तरं मध्याह्नः भविष्यति.
उषः कालस्य अनन्तरं साधारणतया सूर्योदयः
भविष्यति.
उत्तमं, तथा एव. अधुना अत्र एकः वृक्षः अस्ति, वृक्षे बह्व्यः कलिकाः सन्ति. कलिकाः जानाति वा? कलिकाः इत्युक्ते बड्स्. कलिका इत्युक्ते बड्. वृक्षे बह्व्यः कलिकाः सन्ति, ताः कलिकाः किं भविष्यन्ति?
ताः कलिकाः पुष्पाणि भवन्ति.
उत्तमं, पुष्पाणि भविष्यन्ति. उत्तमं
भगिनि,
पुष्पाणि भविष्यन्ति. तथा एव अत्र एकः अङ्कुरः अस्ति, सः अङ्कुरः शीघ्रं किं भविष्यति? बीजात् अङ्कुरं, भवती जानाति एव, बीजात् अङ्कुरम् आगच्छति, बीजात् अङ्कुरम् आगच्छति. अङ्कुरतः किम् आगमिष्यति?
सस्यः आगमिष्यति.
सस्यम् आगमिष्यति, उत्तमम्. अनन्तरम् अत्र एकः आम्रवृक्षः अस्ति, आम्रवृक्षः अधुना पुष्पितः अस्ति. अनन्तरं किं भविष्यति?
पुष्पितः
पुष्पतः इत्युक्ते इट्स् फुल् आफ् पुष्पितः, पुष्पाणि. अधुना आम्रवृक्षः, आम्रवृक्षः पुष्पितः.
आम्रवृक्षः फलानि भविष्यन्ति.
वृक्ष तस्मात् तदनन्तरं वृक्षतः आम्रफलानि आगमिष्यन्ति अथवा आम्रफलानि भविष्यन्ति. अनन्तरम् अधुना आकाशे मेघाः सन्ति, अनन्तरं किं भविष्यति? यदि भवती आकाशे मेघाः सन्ति इति भवती दृष्टवती चेत् किम् ऊहां कर्तुं शक्नोति?
तदनन्तरं वर्षा
वा, अत्र पदद्वयमपि योजयितुं शक्नुमः. वर्षा इति आकारान्तपदमस्ति, नो चेत् वृष्टिः इकारान्तपदमपि अस्ति. वदतु, अधुना वदतु.
अनन्तरं वृष्टाः सन्ति, भविष्यन्ति.
अत्र अधुना आकाशे मेघाः सन्ति, अनन्तरं किं भविष्यति? भवती उक्तवती एव, भवती उक्तवती तदेव किञ्चित् अहं किम् उक्तवती? वृष्टिः आगमिष्यति इति अपि समीचीनं, नो चेत् वर्षा आगमिष्यति अथवा वर्षा भविष्यति इति अपि वक्तुं शक्नुमः. अनन्तरम् अत्र शङ्करन् महोदय, भवान् वदति वा किञ्चित्?
अहं प्रयत्नं करोमि भगिनि.
अत्र एकः आं महोदय, अत्र एकः बालकः अस्ति, सः बालकः तत्र सः किं भविष्यति?
किम्?
एकः बालकः अस्ति, केवलं भविष्यत्कालरूपं योजयित्वा वदतु महोदय.
बालकः पक्ष्यति.
बालकः आगामिवर्षे अत्र
बालकः प्रातःकाले षड्वादने परमेश्वरदर्शनार्थं देवालयं गमिष्यति.
देवालयं गमिष्यति, परन्तु अहं किं चिन्तितवती इत्युक्ते अत्र एकः बालकः अस्ति, सः बालकः भविष्यत्काले अत्र सः पुरुषः अथवा नागरिकः भविष्यति इति अहं चिन्तितवती, परन्तु सम्यक् एव महोदय. अनन्तरं भवान् एव वदतु, अहं वर्तमानकाले वाक्यं वदामि, भवान् भविष्यत्काले किञ्चित् परिवर्तनं कृत्वा वदतु. अहम् अद्य देवालयं गच्छामि, वाक्यं वदतु भविष्यत्काले.
अहं प्रातः किं कालं वदतु महो भगिनी. कालम्
अहम् अहं वर्तमानकाले वाक्यं वदामि. अहम् अद्य देवालयं गच्छामि, तदेव वाक्यम्. अहं श्वः वदतु. अहं श्वः
अहं श्वः प्रातःकाले देवालयं गमिष्यामि.
उत्तमं. देवालयं गत्वा अहं देवं नमामि. भविष्यत्कालरूपं वदतु.
देवं नमा देवं अहं देवालये देवं नमामि इति वर्तमानकाले
महोदय अत्र भविष्यत्कालरूपं किञ्चित् नूतनं पदम् अस्माकं कृते. तदर्थम् अहमेव वदामि. नमति नमामि इति पदस्य रूपं नमस्यामि. न न महोदय, नमस्यामि तत्र सकारः एव तिष्ठति. नमस्यामि
नमस्यामि.
अनन्तरं शिशुः शिशुः हसति भविष्यत्कालरूपं.
शिशुः हसिष्यति.
उत्तमं. देवालये अर्चकः मन्त्रं वदति वदतु.
देवालये अर्चकः मन्त्रं वदिष्यामि.
न महोदय, वदिष्यामि किमर्थं? तत्र उत्तम अहं वदिष्यामि, परन्तु अर्चकः
वदिष्यति.
उत्तमम्. अर्चकः वदिष्यति अथवा देवालये अर्चकः मन्त्रम् उच्चरति.
उच्चरति
इत्युक्ते तत्र उच्चरति इति पदं स्वीकुर्मः चेत् देवालये अर्चकः मन्त्रम् उच्चरिष्यति. अनन्तरं सायङ्काले अहं कारयानं चालयामि. वदतु महोदय.
सायङ्काले अहं कारयानं चारिष्यामि.
कारयानं चालयिष्यामि.
चालयिष्यामि.
उत्तमम्. अनन्तरम् अत्र सेविका गृहे कार्यं करोति, सेविका अस्ति. सेविका वस्त्रप्रक्षालनं करोति इति वाक्यमस्ति. सेविका वस्त्रप्रक्षालनं करोति. भविष्यत्काले वदतु.
सेविका
अत्र वाक्यमस्ति सेविका वस्त्रप्रक्षालनं करोति.
वस्त्रप्रक्षालनं करिष्यामि इति भविष्यत्काले.
भविष्यत्काले सम्यक् एव महोदय. अत्र पश्यतु, अहं वस्त्रप्रक्षालनं करिष्यामि, परन्तु सेविका
वस्त्रप्रक्षालनं करिष्यति.
उत्तमम्. अधुना सम्यक्. अनन्तरं वृक्षात् आम्रफलं पतति.
वृक्षात् आम्रफलं पतिष्यति.
उत्तमं. तावदेव. अहं यानपेटिकां रेल् स्थानके अहं यानपेटिकां नयामि.
अहं यानपेटिकां नेष्यति.
अत्र सर्वे पश्यन्तु, अत्र पदं किञ्चित् नूतनम् अस्माकं कृते. नयति नयामि लट्लकाररूपं. परन्तु भविष्यत्कालरूपं नेष्यति, नेष्यामि. महोदय सम्यक् रीत्या उक्तवान्. अत्र अहं यानपेटिकां श्वः नेष्यामि इति भवति. अनन्तरं दुर्जनः, दुर्जनः दुर्गुणानि त्यजति. वदतु महोदय.
दुर्गुणः दुर्गुणानि त्यजति. दुर्गुणः दुर्गुणानि त्यक्षन्ति, त्यक्षति.
अत्र त्यक्षति, उत्तमम्. अत्र दुर्जनः, दुर्जनः इति अत्र एकवचने अस्ति. दुर्जनः दुर्गुणानि, दुर्गुणानि त्यजति. त्यजति इति वर्तमानकालरूपं, भविष्यत्कालरूपं त्यक्ष्यति. दुर्जनः अथवा अलसः दुर्गुणानि त्यजति. अपि च अन्यं वाक्यम्, अहम् आगामिवर्षे सम्यक् संस्कृतं वदामि. वदतु तत्र. अहम्
आगामिवर्षे संस्कृतभाषां पठिष्यामि,
सम्यक् पठिष्यामि. यदि वदामि, सम्यक् वदामि,
वदिष्यामि,
वदिष्यामि अथवा वक्ष्यामि.
ओ, द्वे द्वे रूपमस्ति चेत्, द्वे रूपमस्ति.
वक्ष्यामि, वक्ष्यामि इति अस्ति महोदय. अनन्तरं गृहिणी, गृहिणी जलं, जलं सिञ्चति. भवन्तः श्रुतवन्तः वा? सिञ्चति, सिञ्चति जलसेचनं करोमि, इत्युक्ते सस्यानां कृते जलसेचनं करोमि इति. वाटरिङ्ग् द प्लाण्ट्स्, सेचनं, जलसेचनं, जलसेचनं. तत्र वाक्यमस्ति गृहिणी जलं सिञ्चति इति पदमस्ति. सिञ्चति इत्यस्य भविष्यत्कालरूपं किं भवति? किञ्चित् ऊहां करोति.
सेष्यति, सेष्यति,
सेक्ष्यति,
क्षकारं, सेक्ष्यति,
सेक्ष्यति. वाक्यं पुनः, तदेव वाक्यं वदतु महोदय.
गृहिणी जलं सेक्ष्यति,
सेक्ष्यति. तावदेव महोदय, धन्यवादः. अनन्तरम् अधुना तावदेव. अधुना कादम्बरी भगिनी, भवती वदतु. अत्र भवत्याः माता चिन्तयति. कादम्बरी भगिनी, भवती वदतु. भवत्याः माता किं चिन्तयति? शृणोतु प्रथमतया, माता किं चिन्तयति भवतीं प्रति? तत्र किं चिन्तयति इत्युक्ते, मम पुत्री कादम्बरी सम्यक् पठिष्यति, अनन्तरं कादम्बरी विद्यालयं गमिष्यति, तदनन्तरं सा स्नातका भविष्यति. स्नातका इत्युक्ते ग्राजुवेट्, स्नातका भविष्यति. अनन्तरं मम पुत्री सम्यक् उपाधिं प्राप्स्यति. उपाधिः इत्युक्ते जाब्, सम्यक् उपाधिं प्राप्स्यति. तदनन्तरं सा सम्यक् धनं सम्पादयिष्यति. अनन्तरं सुखेन जीविष्यति इति भवत्याः माता चिन्तितवती अस्ति. सम्यक् वा? तदेव चिन्तयति माता. अनन्तरं भवती वदतु, अहम् अधुना अभ्यासपुस्तकं पठामि, परन्तु आगामिवर्षे भवती किं पठिष्यति? वयं सर्वे अधुना वयं वदतु,
भगवद्गीता पठिष्यामि.
तावदेव. अधुना वयं अभ्यासपुस्तकं पठामः, परन्तु आगामिवर्षे भवती भगवद्गीतां पठिष्यति. उत्तमम्. अहं वर्तमानकाले वाक्यं वदामि, भवती भविष्यत्कालरूपं वदतु. अहं उद्यानं गच्छामि.
अहम् उद्यानं गमिष्यामि.
अहं संस्कृतं पठामि.
अहं संस्कृतं पाठयिष्यामि.
ओ, भवती पाठयिष्यति वा? अत्र पश्यतु भगिनी, पठिष्यति पाठयिष्यति पदद्वयमपि अस्ति. भवती पाठयितुम् अपि शक्नोति एव, शक्ष्यति इत्युक्ते अत्र पठति पाठयति, वयं जानीमः पठति, अहं स्वयं पठामि परन्तु अन्यं पाठयामि, तथा एव अत्र भविष्यत्कालार्थे अहं संस्कृतं पठिष्यामि अथवा अहं संस्कृतं पाठयिष्यामि. भवती एव वदतु, अहं पाठयिष्यामि इत्युक्ते किम्? अवगतवती वा अत्र पठिष्यामि पाठयिष्यामि? अवगतवती वा? अत्र अन्यं पाठयिष्यति भवती. अनन्तरम् अहम् ईश्वरं स्मरामि. भवती वदतु भविष्यत्कालरूपम्. स्मरामि इति पदस्य रूपं किं भवति?
स्मरिष्यामि.
अहम् ईश्वरं स्मरिष्यामि श्वः. अहं वेगेन धावामि.
अहं वेगेन गाविष्यामि.
सुन्दरम्. अधुना अहं कन्दुकेन क्रीडामि.
अधुना अहं कन्दुकेन
क्रीडामि. किं भवति?
क्रीडिष्यामि.
क्रीडिष्यामि, उत्तमम्. अहं सत्यं वदामि.
अहं सत्यं वदिष्यामि.
उत्तमम्. अहम् आम्रफलं खादामि.
अहम् आम्रफलं
खादामि.
खादिष्यामि.
सुन्दरम्. अहं देशसेवां करोमि.
अहं देशसेवां करिष्यामि.
सुन्दरम्. अहं जलं पिबामि.
अहं जलं पास्यामि.
उत्तमं भगिनी, उत्तमरीत्या उक्तवती, धन्यवादः. अनन्तरम् अत्र सुबरमहोदय, भवान् वदति वा? अत्र किञ्चित् अभ्यासं कुर्मः इतोपि, किमर्थं चेत् अत्र रूपाणि किञ्चित् नूतनानि पदानि अस्माकं कृते, एतानि पदानि, आल् दीस् वर्ड्स् आर् वेरि न्यू टु अस्, तदर्थमेव वयं किञ्चित् इतोपि अभ्यासं कुर्मः. अधुना अहं कारयानं चालयामि.
अहं कारयानं चालयिष्यामि.
उत्तमम्. अहं संस्कृतपाठं पठामि.
अहं संस्कृतपाठं पठिष्यामि.
उत्तमम्. अहं प्रतिदिनं संस्कृतशब्दकोशं पश्यामि.
अहम्
अत्र संस्कृतशब्दकोशः इत्युक्ते किम्
डिक्षनरि
डिक्षनरि अहं प्रतिदिनं संस्कृतशब्दकोशं पश्यामि वदतु महोदय
अहं प्रतिदिनं संस्कृतकोशं द्रक्ष्यामि
द्रक्ष्यामि उत्तमम् अहम् आगामिवर्षे भगवद्गीतां किं किं भवति तत्र अहम् आगामिवर्षे इत्युक्ते नेक्स्ट् इयर् भगवद्गीतां पठिष्यामि पठामि अथवा पठिष्यामि तथा भवति उत्तमम् अनन्तरम् अत्र इतोपि साधारणतया ग्रीष्मकाले आम्रफलानि आगच्छन्ति ग्रीष्मकाले आम्रफलानि फलन्ति इति अहं वदामि फलन्ति इति अहं वदामि भवान् भविष्यत्कालरूपं वदतु आम्रफलानि फलन्ति
ग्रीष्मकाले आम्रफलं फलिष्यामि
अत्र आम्रफलम् अहं फलिष्यामि अहम् अस्ति चेत् फलिष्यामि परन्तु आम्रफलं
फलिष्यति
फलिष्यति आम्रफलानि
आम्रफलानि फलिष्यन्ति
उत्तमम् आम्रफलानि फलिष्यन्ति कदा
आम्
कदा कदा इत्युक्ते कदा
ग्रीष्मकाले ग्रीष्मकाले
ग्रीष्मकाले उत्तमं तथा एव वसन्तकाले नूतनानि पत्राणि आगच्छन्ति भविष्यत्कालरूपं वदतु
वसन्तकाले नूतनानि पत्राणि आगमिष्यति
आगमिष्यन्ति पत्राणि आगमिष्यन्ति
पत्राणि आगमिष्यन्ति बहुवचनं पत्राणि
पत्राणि आगमिष्यन्ति तथा एव शिशिरऋतौ पुरातनानि पत्राणि पतन्ति
शिशिरकाले पुरातनपत्राणि पतिष्यति
पत्रं पतिष्यति परन्तु पत्राणि
पतिष्यन्ति
तावदेव
पत्राणि पतिष्यन्ति
उत्तमम् शिशिरऋतौ पुरातनानि पत्राणि पतिष्यन्ति वयं जानीमः पतति इत्युक्ते किं
पतति फाल्
तावदेव वसन्तऋतौ कोकिलाः कूजन्ति
क्रियापदं
अत्र कूजन्ति वसन्तऋतौ कोकिलाः कूजन्ति
वसन्तऋतु कोकिलाः कूजयति
अत्र कूजन्ति इति पदस्य रूपं कूजिष्यन्ति
कूजिष्यन्ति
अत्र कोकिलाः कोकिलाः इति बहुवचनरूपं तदर्थं क्रियापदम् अपि कर्तृपदम् अनुसृत्य भवति अत्र अत्र सर्वाणि वाक्यानि कर्तरिप्रयोगे सन्ति इत्युक्ते वि आर् आल् कन्स्ट्रक्टिङ्ग् सेण्टेन्सस् इन् आक्टिव् वाय्स् अतः कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति तदर्थं वसन्तऋतौ ऋतौ किमर्थं ऋतौ इत्युक्ते ऋतुः उकारान्तपदं परन्तु अस्माकं कृते सप्तमीविभक्तिरूपम् आवश्यकम् वसन्तऋतौ इति भवति वसन्तऋतौ किं भवति कोकिलाः कूजिष्यन्ति अपि च अनन्तरं वसन्तकाले मयूराः नृत्यन्ति
वसन्तऋतौ मयूराः नृत्यिष्यति
नर्तिष्यन्ति
नर्तिष्यन्ति
नर्तिष्यन्ति अनन्तरं छात्रः अध्यापकं प्रश्नं पृच्छति छात्रः अत्र अस्माकं कक्षायां छात्राः सन्ति तथा एव एकः छात्रः अध्यापकं प्रश्नं पृच्छति भविष्यत्काले किं भवितुमर्हति
छात्रः अध्यापकं प्रश्नं पृच्छति
प्रक्ष्यति अत्र प्रश्नः इति अकारान्तपदं प्रश्नः इति पदं बहुवचने वक्तुमिच्छति चेत् प्रश्नाः छात्रः अध्यापकं प्रश्नं पृच्छति अत्र पृच्छ् धातुः द्विकर्मकधातुः इत्युक्ते कर्मपदद्वयं स्वीकर्तुं शक्नोति अतः छात्रः अध्यापकं पृच्छति किं पृच्छति प्रश्नं पृच्छति अत्र कर्मपदद्वयम् अस्ति तदर्थमेव छात्रः अध्यापकं प्रश्नं पृच्छति बहुवचने वदामश्चेत् अहम् आपणतः कदलीफलं क्रीणामि
अहम् आपणतः कदलीफलं क्रेष्यामि
क्रेष्यामि सुन्दरं महोदय उत्तमं तावदेव अनन्तरम् अत्र लक्ष्मी भगिनी भवती वदतु अधुना अहं धनं ददामि भविष्यत्कालरूपं किं भवति वदतु
अहं धनं दमिष्यामि
अत्र धनं ददामि इति पदस्य लृट्लकाररूपं
दास्यामि
सुन्दरं ददामि इति पदस्य रूपं दास्यामि परन्तु पश्यामि तस्य रूपं द्रक्ष्यामि इति भवति तत्र भेदः अस्ति ददाति तस्य रूपं दास्यति इति भवति परन्तु पश्यति इति पदस्य रूपं द्रक्ष्यति इति भवति उत्तमम् अनन्तरम् अत्र इतोपि किञ्चित् अन्यानि वाक्यानि पश्यामः अहं श्वः चलनचित्रं द्रक्ष्यामि इति वक्तुं शक्नुमः अनन्तरम् अहं संस्कृतपाठं लिखामि किं भवति
अहं संस्कृतपाठं लिखिष्यामि
अनन्तरम् अद्य मम व्याकरणकक्ष्या अस्ति इति वाक्यमस्ति अद्य मम व्याकरणकक्ष्या अस्ति परन्तु श्वः अपि कक्ष्या अस्ति वाक्यं वदतु भगिनि किं वक्तुं शक्नुमः तत्र
श्वः अहं संस्कृतपाठं भविष्यति
मम संस्कृतपाठः भविष्यति अथवा श्वः मम संस्कृतव्याकरणकक्ष्या भविष्यति अनन्तरम् अहं अद्य चलनचित्रगीतानि शृणोमि किं भवति
अहं श्वः चलनचित्रं श्रोष्यामि
उत्तमम् अनन्तरम् अहम् औषधं पिबामि औषधम् इत्युक्ते मेडिसिन् अहम् औषधं पिबामि अहं श्वः वदतु
अहं श्वः औषधं पास्यामि
उत्तमं तथा एव कर्मकरी भवती जानाति वा कर्मकरी इत्युक्ते सर्वेण्ट् मेड् अथवा सेविका अथवा कर्मकरी इति वदामः अत्र कर्मकरी गृहं मार्जयति किं वदामः भविष्यत्कालरूपं
कर्मकरी गृहं
मार्जयति
मार्क्ष्यति
अत्र स्थापयति तथा एव अत्र किं भवति मार्जयिष्यति मार्जयिष्यति अनन्तरम् अहं गीतं गायामि किं भवति?
अहं गीतं गमिष्यामि.
अत्र पश्यतु भगिनि, गमिष्यामि, गच्छामि इति पदस्य रूपं गमिष्यामि, परन्तु अहं गायामि, अहं गीतं गायामि. किञ्चित् नूतनानि पदानि वयं न जानीमः इदानीं पर्यन्तं, परन्तु एकवारं वदामश्चेत् अभ्यासः भवति. श्रवणेन एव, केवलं श्रवणेन एव अत्र श्रवणाभ्यासः भवति. अहं गीतं गास्यामि.
गास्यामि.
तथा एव अहं संस्कृतपाठम् अवगच्छामि.
अहं संस्कृतपाठं
अत्र किं भवति इत्युक्ते, अत्र वयं जानीमः गच्छामि, परन्तु अत्र अवगच्छामि इति पदमस्ति, तदर्थमेव अत्र भविष्यत्कालरूपं किं भवति? अवगमिष्यामि.
अवगमिष्यामि.
अनन्तरम् अहम् आपणं गत्वा शाटिकां क्रीणामि. अहम् आपणं गत्वा शाटिकां क्रीणामि. किं भवति?
न जानामि.
चिन्ता मास्तु भगिनि. अत्र आरोहण भवान् वदतु. अत्र अहम् आपणं गत्वा शाटिकां क्रीणामि इति वाक्यमस्ति, परन्तु भविष्यत्काले कालरूपं योजयित्वा वक्तुमिच्छति चेत् किं वदति भवान्? आरोहन् अस्ति वा अत्र? नो चेत् सुचित्रा भगिनी भवती वदतु अत्र. सुचित्रा भगिनी
प्रेषयामि पुनः.
अहम् आपणं गत्वा शाटिकां क्रीणामि इति वाक्यमस्ति, परन्तु भविष्यत्कालरूपं वदामि वक्तुमिच्छति चेत्.
अहम् आपणतः शाटिकायां क्रेष्यामि.
अत्र पश्यतु भगिनि, शाटिकां क्रेष्यामि, परन्तु यदि वयं शाटिकायाम् इति वदामश्चेत् तत्र सप्तमी रूपं भवति, परन्तु अस्माकं कृते केवलं द्वितीयाविभक्तिरूपम् आवश्यकम्. अहं क्रीणामि. किं क्रीणामि? शाटिकां क्रीणामि. कुत्र क्रीणामि अथवा कुतः क्रीणामि? आपणतः शाटिकां क्रीणामि. अत्र पदमस्ति शाटिकां, परन्तु शाटिकायाम् इति वदामश्चेत् तत्र सप्तमी रूपं भवति. अहम् आपणतः शाटिकां क्रेष्यामि. अनन्तरं वदतु भगिनि, अहं चलनचित्रं पश्यामि. किं भवति?
अहं चलनचित्रं द्रक्ष्यामि.
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 अनन्तरम् आपणिकः, जानति वा? आपणं वयं जानीमः, आपणः वयं जानीमः. आपणिकः, आपणिकः इत्युक्ते यः आपणे कार्यं करोति सः एव आपणिकः. आपणिकः वस्तूनि ददाति. आपणिकः वस्तूनि ददाति इति वाक्यमस्ति. अस्माकं कृते आपणिकः कानिचन वस्तूनि ददाति. भविष्यत्कालरूपं किं भवितुम् अर्हति?
अहम् आपणिकाः वस्त्रं ददामि. दासयामि.
अत्र प्रथमं वाक्यमस्ति अहं
ददामि.
आपणिकः वस्तूनि ददाति. आपणिकः वस्तूनि ददाति. किं ददाति? आपणिकः ददाति. किं ददाति? वस्तूनि ददाति. कस्मै ददाति? किमपि. कस्मै ददाति इत्युक्ते भवते ददाति किमपि. अनन्तरं तस्य भविष्यत्कालरूपं किं भवति?
दास्यामि.
परन्तु पश्यतु भगिनि, अहं दास्यामि, परन्तु आपणिकः
दास्यति.
आपणि. उत्तमं, तदेव वाक्यं पुनः वदतु.
आपणिकः शाटिकायां दास्यति.
शाटिकां दास्यति.
शाटिकां दास्यति.
दास्यति आपणिकः. आपणिकः इत्युक्ते यः आपणे कार्यं करोति सः एव आपणिकः. आपणिकः भवत्याः कृते शाटिकां दास्यति. अहं दास्यामि, परन्तु आपणिकः शाटिकां दास्यति. तथा भवति. अनन्तरं सर्वे एकवारम् अत्र बहूनि करपत्राणि सन्ति, प्रथमं करपत्रं पश्यन्तु सर्वे. तत्र किमर्थं प्रेषितवती इत्युक्ते भवन्तः सर्वे एकवारं पठन्ति चेत् सम्यक् अवगन्तुं शक्नुवन्ति. तदर्थं भगिनी भवती एव पठतु प्रथमं करपत्रं. सर्वे पश्यन्तु प्रथमे करपत्रे किं दत्तमस्ति.
विच् वन् भगिनि?
अत्र प्रथमं करपत्रं.
प्रथमं कथम्? एकम् एकनिमिषम्. धातुः.
आं भगिनि. अत्र एकवारं रूपाणि वदतु, नवरूपाणि पठतु करपत्रं दृष्ट्वा.
लुट् भविष्यति, भविष्यतः, भविष्यन्ति, भविष्यसि, भविष्यतः, भविष्यत्, भविष्यामि, भविष्यावः, भविष्यामः.
इत्युक्ते अत्र किं दत्तमस्ति? अत्र भूधातुः अस्ति. वयं जानीमः भूधातोः रूपं भवति, परन्तु अत्र किम् उपरि किं दत्तमस्ति? लृट्, लृट् इति दत्तमस्ति. लृट् इत्युक्ते भविष्यत्कालरूपं. भूधातोः भविष्यत्कालरूपाणि एतानि. दीस् आर् आल् द नैन् डिफ्रेण्ट् फार्म्स् फर् भूधातुः. वयं केवलम् अभ्यासपुस्तके, यद्यपि अभ्यासपुस्तके केवलं चत्वारि रूपाणि एव दत्तानि. चत्वारि, देर् आर् ओन्लि फोर् फार्म्स् वर् गिवेन्. चत्वारि रूपाणि एव दत्तानि. इत्युक्ते अत्र वयं भवति, भवन्ति, भवामि, भवामः इति चत्वारि रूपाणि एव वयं जानीमः, परन्तु नवरूपाणि ज्ञातव्यानि. वी नीड् टु नो आल् दीस् नैन् फार्म्स्. तदर्थम् अहं प्रेषितवती. अत्र प्रथमपुरुषरूपाणि भविष्यति, भविष्यतः, भविष्यन्ति. अपि च मध्यमपुरुषरूपाणि भविष्यसि, भविष्यतः, भविष्यथ. एकवचने, द्विवचने, बहुवचने च. अनन्तरम् उत्तमपुरुष एकवचनरूपाणि. एकवचनरूपं किं भगिनि? उत्तमपुरुषरूपं
भविष्यामि, भविष्यावः, भविष्यामः.
तावदेव. तदेव प्रथमं करपत्रम्. अपि च द्वितीयकरपत्रे बहूनि पदानि सन्ति. सर्वे एकवारं गृहं गत्वा द्वितीयं करपत्रं पठन्तु. तत्र बहूनि रूपाणि सन्ति. अस्माकं विषयः अस्ति लृट्रकार रूपाणि, भविष्यत्कालरूपाणि. एकवारं पठन्तु, नो चेत् स्मरणं भविष्यति. तदर्थं द्वितीयं करपत्रं त्यजामः. तृतीयं करपत्रं पठतु भगिनि, भवती एव.
आं भगिनि. गच्छति, गमिष्यति
न न अत्र करिष्यति इति पदम्
करिष्यति करिष्यतः करिष्यन्ति करिष्यति करिष्यतः करिष्यत् करिष्यामि करिष्यावः करिष्यामः
उत्तमम् अत्र एतानि पदानि रुट्रकाररूपाणि अत्र धातुः अस्ति क्रु क्रु धातोः रूपाणि वयं जानीमः करोमि कुर्मः अहं कार्यं करोमि वयं कार्यं कुर्मः इति वयं जानीमः तथा एव अत्र भविष्यत्कालरूपे वक्तुमिच्छामश्चेत् अहं कार्यं करिष्यामि वयं कार्याणि करिष्यामः तथा वक्तव्यम् अत्र भवती एव
कुत्र अस्ति
वदतु महोदय अरोहन् वदतु
कुत्र अस्ति
सूत्रं वा किम् उक्तवान् भवान् कुत्र अस्ति इति पृष्टवान् वा
आम्
ओ अहं कानिचन करपत्राणि प्रेषितवती पञ्च अथवा चत्वारि करपत्राणि प्रेषितवान् न दृष्टवान् वा भवान्
दृष्टवान्
अत्र अधुना भवान् एव पठतु द्वितीये करपत्रे कानिचन पदानि सन्ति भवती एव भवान् एव पठतु अत्र द्वितीयं करपत्रं संस्कृतभारत्या निर्मितं द्वितीयं करपत्रं संस्कृतभारत्या निर्मितं करपत्रं क्रियापदानि कथं वक्तव्यम् इत्युक्ते प्रथमतया वर्तमानकालरूपं वदतु तदनन्तरं भविष्यत्कालरूपं वदतु अवगतवान् वदतु
करिष्यति करिष्यतः करिष्यन्ति करिष्यति करिष्यतः करिष्यत् करिष्यामि करिष्यावः करिष्यामः
उत्तमम् इत्युक्ते भवान् यत् पठितवान् तत्र क्रूधातोः रूपाणि अत्र क्रूधातुः किं वदामः उभयपदी धातुः इति वदामः इत्युक्ते अत्र क्रूधातोः परस्मैपदिरूपम् अस्ति अपि च आत्मनेपदिरूपमपि अस्ति इत्युक्ते क्रूधातोः करोति इति रूपम् अस्ति अपि च कुरुते इति आत्मनेपदिरूपम् अपि अस्ति परन्तु अत्र अस्मिन् करपत्रे केवलं परस्मैपदिरूपाणि दत्तानि लृट्लकाररूपाणि भवान् एव पठतु अग्रिमं करपत्रमपि दृष्ट्वा पठतु अग्रिमं करपत्रम् आरोहन् पठतु संस्कृतभारत्या निर्मितं करपत्रमस्ति अन्यं करपत्रं करोति वा पठतु पठतु
गमिष्यति पठिष्यति पतिष्यति क्रीडिष्यति पास्यति लेखिष्यति
अत्र भवान् अत्र भवान् किं कुतः अत्र लेखिष्यति करोतु महोदय करोतु
नेष्यति द्रक्ष्यति पक्ष्यति प्रक्ष्यति
अत्र अहं किम् उक्तवती एकवारं शृणोतु एकवारं शृणोतु अत्र अहं किं पृष्टवती इत्युक्ते अत्र संस्कृतभारत्या निर्मितं करपत्रद्वयं प्रेषितवती अहं भवतः पार्श्वे अस्ति वा करपत्रं दृष्ट्वा तत्र तस्मात् करपत्रात् भविष्यत्कालरूपाणि एकवारं पठतु इति अहम् उक्तवती. दृष्टवान् वा करपत्रम्?
आम्.
पठतु, इदानीं दृष्ट्वा पठतु. तत्र किं दत्तमस्ति तदेव पठतु.
गमिष्यति, पठिष्यति, पठिष्यति, क्रीडिष्यति, वदिष्यति, पास्यति, लेखिष्यति, नेष्यति, द्रक्ष्यति, प्रक्ष्यति, भविष्यति, मेलिष्यति, त्यक्ष्यति, खादिष्यति, ज्ञास्यति, करिष्यति, शोष्यति, दास्यति, प्रेषयिष्यति, प्रक्षालयिष्यति, उत्थास्यति. उपवेक्ष्यति, स्थापयिष्यति, स्मरिष्यति,
उत्तमम्,
आगमिष्यति, भविष्यति, सूचयिष्यति,
अत्र एकवारं पश्यतु. वयं जानीमः इच्छति, इच्छति इति रूपं वयं जानीमः. इच्छति इति पदस्य भविष्यत्कालरूपम् एषिष्यति, नूतनं रूपम् एषिष्यति तथा भवति. अहम् इच्छामि, अहं मधुरम् इच्छामि, परन्तु भविष्यत्काले वक्तुमिच्छामि चेत् अहं मधुरम् एषिष्यामि. तथा अग्रिमं पठतु महोदय.
स्वीकरिष्यामि, गृहिष्यामि, रोदिष्यति,
अनन्तरं
क्षक्ष्यति, आनोष्यति.
अत्र पश्यतु, वयं जानीमः आनयति,
आनेष्यति,
आनयति, आनेष्यति इति भवति. अहं पुस्तकम् आनयामि, अहम् आनेष्यामि इति भवति. अनन्तरं
क्रेष्यति, निन्दष्यति, आह्वयति.
वयं जानीमः आह्वयति, आह्वयति इति पदं जानीमः, परन्तु आह्वयति तस्य रूपं भवति आह्वास्यति, आह्वास्यति. अहं मित्रम् आह्वास्यामि. उत्तमपुरुषे वदामश्चेत् अहं मित्रम् आह्वयामि, अथवा भविष्यत्कालरूपं योजयित्वा वदामि चेत् अहं मित्रम् आह्वास्यामि तथा भवति. उत्तमं महोदय. अनन्तरं भवतः पार्श्वे अन्यं करपत्रमपि अस्ति वा अत्र? नो चेत् त्यजामः. किमर्थं चेत् तत्र धन्यवादः. अत्र संस्कृतभारत्या निर्मितकरपत्रद्वयमस्ति. सर्वे एकवारं पश्यन्तु, अत्र नूतनानि पदानि सन्ति. पुनः एकवारं गृहं गत्वा गृहपाठरूपेण एतानि पदानि सम्यक् उच्चारणं कृत्वा पठन्तु, अवधानं दत्वा पठन्तु. तदा सम्यक् अभ्यासः भवति. अधुना अहं किं कर्तुमिच्छामि इत्युक्ते भवतां कृते एकं श्लोकं वदामि. अत्र भविष्यत्कालरूपाणां कृते इत्युक्ते अत्र अस्मिन् श्लोके बहूनि पदानि भविष्यत्कालरूपाणि सन्ति. श्लोकः अस्ति, रात्रिर्गमिष्यति भविष्यति सुप्रभातम्, भास्वानुदेश्यति हसिष्यति पङ्कजश्रीः, इत्थं विचिन्तयति कोशगते द्विरेफे, हा हन्त हन्त नळिनीं गज उज्जहार. इत्युक्ते अत्र एका कथा अस्ति अस्मिन् श्लोके. पदानि गमिष्यति भविष्यति उदेष्यति हसिष्यति, एतानि पदानि भविष्यत्कालरूपाणि. परन्तु अत्र कथा का इत्युक्ते अस्मिन् श्लोके किमर्थं वयं पठामः इत्युक्ते, अस्मिन् श्लोके बहूनि भविष्यत्कालरूपाणि सन्ति, तदर्थं पठामः. अत्र कथा का इत्युक्ते, अत्र एकस्मिन् वने, तत् एकः एकं वनमस्ति, एकस्मिन् वने एकं अत्र किमस्ति, एकः जलाशयः अस्ति. जलाशयः इत्युक्ते पाण्ड्. तस्मिन् जलाशये एकं कुमुदमस्ति. कुमुदम् इत्युक्ते पद्मम् अथवा नलिनी, तस्य अन्यं पदमस्ति जलजा. अत्र जलाशये एकं कुमुदमस्ति. कुमुदे किम् अभवत्, तत्र एका मधुमक्षिका तत्र आगता. मधुमक्षिका इत्युक्ते हनीबी. तत्र एकं वनमस्ति, तस्मिन् वने एकः जलाशयः अस्ति, जलाशये एकं कुमुदमस्ति. तदा किम् अभवत्, एका मधुमक्षिका तत्र आगता. किमर्थं मधुमक्षिका आगता इत्युक्ते, केवलं मकरन्दं पातुमिच्छति सा मधुमक्षिका. द हनी बी वाण्ट् टु ईट् द मकरन्दं. मकरन्दं पातुं तत्र आगता. आगत्य सा मधुमक्षिका चिन्तयति. किं चिन्तयति? अहम् अत्र एव तिष्ठामि, इतोपि किञ्चित् कालम् अत्र एव स्थित्वा मकरन्दं पास्यामि, अनन्तरम् एव इतः अन्यत्र गच्छामि. किञ्चित् कालानन्तरं, किञ्चित् कालपर्यन्तम् अहं तत्र एव स्थास्यामि इति चिन्तयित्वा सा मधुमक्षिका किं करोति, तत्र एव स्थित्वा एवं चिन्तयति. दट् हनी बी थिङ्क् लैक् दिस्, रात्रिर्गमिष्यति अपि च सुप्रभातं भविष्यति, भास्वान् उदेष्यति, पङ्कजश्रीः हसिष्यति, इत्थं चिन्तयति. एतादृशरीत्या सा मधुमक्षिका चिन्तयित्वा तत्र एव तिष्ठति. परन्तु किञ्चित् कालानन्तरं किम् अभवत् इत्युक्ते, तत्र एकः गजः आगतः. गजः किं करोति? तत्र गजः आगत्य तस्मिन् सरसि स्थित्वा जलं पीत्वा, सः गजः किञ्चित् कालं क्रीडित्वा किं करोति, तां कुमुदं जलतः उत्पाटयति. इत्युक्ते दट् एलिफेण्ट् पुल्ड् औट् द लोटस्, प्लक्ड् औट्, पुल्ड् इट् औट्, तथा करोति गजः. तथा अभवत् इत्युक्ते, सा मधुमक्षिका तादृशरीत्या मृता अभवत्. सः मधुमक्षिका मृतवती, सा मृता इत्युक्ते अत्र तथा चिन्तयित्वा सा मधुमक्षिका तत्र एव तिष्ठति, अन्यत्र न गच्छति. परन्तु किञ्चित् कालानन्तरं तत्र एकः गजः आगत्य तं कुमुदम् उत्पाटयति. तदर्थं सा मधुमक्षिका मृता अभवत्. इत्युक्ते अस्मिन् श्लोके बहूनि भविष्यत्कालरूपाणि सन्ति. तदर्थमेव तस्मात् कारणात् एव अयं श्लोकः बहु प्रसिद्धः. अत्र नीतिः का इत्युक्ते, वयम् एकारीत्या चिन्तयामश्चेत्, एकारीत्या चिन्तयित्वा कार्यं कुर्मः चेत् अन्यरीत्या अपि भवितुं शक्नोति. इफ् वि थिङ्क् एण्ड् डु द thing in one way, if we think in one way, it can happen in a different way, which we didn't foresee. We can't foresee. इत्युक्ते ये कार्यरीत्या चिन्तयित्वा वयं कार्यं कुर्मः चेत् तदा फलितम् अन्यरीत्यापि भवितुं शक्नोति, भवितुं शक्ष्यति इत्यपि वक्तुं शक्नुमः. शक्नोति इति पदस्य भविष्यत्कालरूपं शक्ष्यति. तदर्थमेव अयं श्लोकः बहु प्रसिद्धः. श्लोकः कः इत्युक्ते रात्रिर्गमिष्यति, भविष्यति सुप्रभातं, भास्वान् उदेष्यति, हसिष्यति पङ्कजश्रीः, इत्थं विचिन्तयति कोशगते द्विरेभे, हा हन्त हन्त नळिनीं गज उज्जहार इति श्लोकः. अपि च अत्र अस्माकं कृते एका कथा अपि अस्ति, नष्टः तिष्ठघटः, परन्तु अग्रिमे सप्ताहे पठिष्यामः तस्मिन् तां कथां. परन्तु अद्य वयं अत्र अभ्यासपुस्तके एव अत्र किं दत्तमस्ति, अग्रिमविषयः कः इत्युक्ते सम्बोधनरूपाणि इति दत्तमस्ति. अत्र सर्वे पश्यन्तु, एकवारम् अभ्यासपुस्तकं पश्यन्तु. अत्र 13.1 भागे किं दत्तमस्ति, अत्र उमाशङ्करमहोदय भवान् पठतु, अत्र किं दत्तमस्ति 13.1.
रामः कृष्णः गोविन्दः गौरी मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि
भिन्नानि भवन्ति. अत्र पश्यन्तु, अत्र सर्वे पश्यन्तु, रामः कृष्णः गोविन्दः गौरी मित्रम् इत्यादीनाम् अत्र पश्यन्तु सर्वे, इत्यादीनाम् इति पदमस्ति. अत्र सन्धिः अस्ति, इति प्लस् आदीनाम् इति योगः आदीनाम् इत्यादीनाम् इति भवति. इत्यादीनां सर्वेषाम् अत्र विभक्तिः अस्ति, षष्ठी बहुवचनम्. इत्यादीनां शब्दानां सम्बोधनरूपाणि भिन्नानि भवन्ति. वयं जानीमः रामः इति पदम् अकारान्तपदं, कृष्णः गोविन्दः अकारान्तपदं, पदद्वयं. परन्तु केवलम् एकवचने सम्बोधनरूपाणि भिन्नानि भवन्ति, द्विवचने अपि च बहुवचने रूपाणि समानानि. इत्युक्ते इदानीं पर्यन्तं वयं प्रथमाविभक्त्यन्तरूपाणि पठितवन्तः, परन्तु अत्र अस्मिन् पुटे सम्बोधनरूपाणि दत्तानि. सम्बोधनरूपाणि प्रथमाविभक्त्यन्तरूपाणि इव न भवन्ति, इत्युक्ते ते भिन्नानि, भिन्नरूपाणि सन्ति. कथं भिन्नानि इति अधुना वयं पश्यामः. इत्युक्ते इदानीं पर्यन्तं वयं प्रथमाविभक्त्यन्तरूपाणि पठितवन्तः, अत्र सम्बोधनरूपाणि दत्तानि. एकवचने सम्बोधनरूपाणि भिन्नानि, परन्तु द्विवचने बहुवचने प्रथमाविभक्त्यन्तरूपाणि एव सम्बोधनरूपाणि. दे आर् सेम् फर् द्विवचनम् अण्ड् बहुवचनं, परन्तु केवलम् एकवचने रूपाणि भिन्नानि. तथा एव यदि वयं सम्बोधनं कुर्मः तदा किं वदामः, हे भोः, अये, अयि, रे, एतानि पदानि पूर्वं योजयित्वा वदामः. कथं, हे राम, हे कृष्ण, भो गोविन्द, अयि गौरी तथा. इत्युक्ते अत्र सम्बोधनरूपाणि यदि सम्बोधनं कुर्मः चेत् तदा कथं वदामः, हे अथवा भोः, अये, अयि, रे इत्यादीनि पदानि पूर्वं योजयित्वा सम्बोधनं कुर्मः. कथं कथं वक्तव्यम्? अधुना अत्र कादम्बरी भगिनी अस्ति. यदि कादम्बरी भगिनीं सम्बोधयितुम् इच्छामि चेत् किं वदामि अत्र? हे कादम्बरी, तथा वदामः. अत्र सुचित्रा भगिनी अस्ति. सुचित्रा भगिनीम् उद्दिश्य वदामि चेत् हे सुचित्रे, तथा वदामः. हे सुचित्रे, किमर्थं सुचित्रा इति पदम् आकारान्तपदं? तदर्थं सम्बोधनरूपं किं भवति? सुचित्रे इति भवति. अत्र लक्ष्मीभगिनी अस्ति. लक्ष्मीभगिनीम् उद्दिश्य सम्बोधनं कर्तुमिच्छामि चेत् किं भवति? हे लक्ष्मी इति भवति. उमाशङ्करमहोदय, भवान् एव पठतु अत्र रूपाणि. अत्र अत्र प्रथमाविभक्त्यन्तरूपाणि दत्तानि, अपि च सम्बोधनारूपाणि अपि दत्तानि. पठतु.
रामग रामा, कृष्णग कृष्णा, गोविन्दग गोविन्द, हरिः हरे, गुरुः गुरो, राजा राजन्, महाराजा महाराजा, महोदयः महोदय, पिता पिता, सीता सीते, रमा रमे, मन्या मन्ये, गौरी
मान्य. महोदय, अत्र अत्र पदमस्ति मान्या
मान्या मान्ये, गौरी गौरी, भगिनी भगिनी, लक्ष्मी लक्ष्मी, अम्बा अम्बा, माता मातः
मातः. अत्र किञ्चित् चिन्तनं कुर्मः. अत्र प्रथमं पदमस्ति रामः. रामः इति पदम् अकारान्तपुंलिङ्गपदम्. अकारान्तपदं पुंलिङ्गपदमस्ति चेत् सम्बोधनरूपं किं भवति? वदतु महोदय.
राम
राम इत्युक्ते तत्र ततः विसर्गः अपगच्छति. यु काण्ट् सी द विसर्ग. अत्र प्रथमाविभक्त्यन्तरूपं रामः, परन्तु सम्बोधनारूपं राम इत्युक्ते अत्र केवलं विसर्गः न तिष्ठति. तथा एव कृष्णः इति पदमस्ति. कृष्णः सम्बोधनरूपं किं?
कृष्ण
कृष्ण, कृष्णपदमपि अकारान्तपुंलिङ्गपदम्. तथा एव गोविन्दः, गोविन्दः इति पदम् अपि अकारान्तपदम्. अतः सम्बोधनरूपं किं भवति?
गोविन्द
गोविन्द, तत्रापि विसर्गः न तिष्ठति. अपि च हरिः, हरिः इति पदम् इकारान्तपुंलिङ्गपदम्. हरिः इकारान्तपुंलिङ्गपदम्. अतः सम्बोधनरूपं किं भवति?
हरे
हरे, हे हरे इत्युक्ते हरिम् उद्दिश्य वदामश्चेत् हरे, हे हरे, भोः हरे इति वदामः. तथा एव अत्र गुरुः इति पदमस्ति उकारान्तपदं. गुरुः इति ह्रस्व उकारान्तपदं पुंलिङ्गपदं. किं भवति तस्य रूपं?
गुरो गुरो
गुरो गुरो. अत्र अन्य अग्रिमं पदं राजा इति दत्तमस्ति, परन्तु अत्र भवन्तः न जानन्ति, परन्तु वदामि. राजा इति पदं हलन्तपदं, नकारान्तपदं. प्रातिपदिकमस्ति, मूलरूपमस्ति राजन्. तदर्थमेव अत्र सम्बोधनरूपं राजन् इति दत्तमस्ति. अपि च महाराजः किं भवति महोदय, वदतु?
महाराज.
किमर्थम् अत्र? अत्र पश्यतु, रामः कृष्णः गोविन्दः गोविन्दः महाराजः, एतानि चत्वारि पदानि अकारान्तपदानि. यदि पदम् अकारान्तमस्ति चेत् केवलं विसर्गः न तिष्ठति. महोदयः अत्र किम् अभवत्?
महोदय.
अत्रापि विसर्गः न तिष्ठति. विसर्गः न तिष्ठति. अग्रिमं पदं किम्?
पिता.
पिता अत्र पश्यन्तु सर्वे पिता इति पदं रुकारान्तपदं रु अजन्तपदम् इत्युक्ते अच् अच् अन्ते अस्ति इति कारणतः अजन्तपदम् इति वदामः रुकारान्तपदं तस्य मूलरूपम् अस्ति पितृ पितृ इति पिता इति शब्दस्य मूलरूपं पितृ माता इति शब्दस्य मूलरूपं मातृ तथा एव अत्र पिता शब्दस्य सम्बोधनारूपं पितः सर्वे पश्यन्तु पूर्वं विसर्गः अपगच्छति अधुना पदं ऋकारान्तपदम् इति कृत्वा अत्र विसर्गः आगच्छति अवगतवान् वा महोदय अत्र अत्र पिता इति यदि पदं ऋकारान्तपदमस्ति चेत् तत्र सम्बोधनारूपं वदामश्चेत् तत्र विसर्गः स्थापनीयः इत्युक्ते पिता पितः हे पितः इति वदामः अनन्तरम् अग्रिमं पदं सीता सीता इति पदम् आकारान्तस्त्रीलिङ्गपदं तत्र किम् अभवत् वदतु महोदय
सीते
सीता सीते भवति तथा एव सुचित्रा सुचित्रे भवति तथा एव रमा किं भवति
रमा रमे
रमे मान्या आकारान्तपदम् आकारान्तस्त्रीलिङ्गपदं मान्ये भवति तथा एव अत्र गौरी गौरी इति पदम् ईकारान्त दीर्घ ईकारान्त स्त्रीलिङ्गपदम् इति कृत्वा अत्र सम्बोधनारूपं किं भवति
गौरी
गौरी गौरी इत्युक्ते अत्र ह्रस्वरूपम् आगच्छति प्रथमाविभक्त्यन्तरूपं गौरी दीर्घ ईकारान्तं परन्तु सम्बोधनारूपं वदामश्चेत् हे गौरी तथा एव अत्र भगिनी दीर्घ ईकारान्तपदं भगिनी इति पदस्य सम्बोधनरूपं किम्
भगिनी भगिनी
भगिनी यदि भवन्तः सर्वे ई पत्रं यदि प्रश्नाः सन्ति चेत् ई पत्रं प्रेषितुम् इच्छन्ति चेत् तदा किं वक्तव्यं भगिनी अत्र सम्बोधनरूपेण हे भगिनी इति वक्तव्यं परन्तु प्रथमाविभक्त्यन्तरूपं भगिनी दीर्घ ईकारान्तं तथा भवति अग्रिमं पदं मम नाम लक्ष्मीः अत्र लक्ष्मीः इति पदं दत्तमस्ति लक्ष्मीः इति पदमपि दीर्घ ईकारान्तपदम् इति कृत्वा अत्र सम्बोधनारूपं लक्ष्मी
लक्ष्मी
इत्युक्ते अत्र किम् अभवत् महोदय वदतु
ईकारान्त पदं
वाट् हेपन् हियर् अभवत्
विसर्गः नास्ति
विसर्गः अपगच्छति अपि च दीर्घ ईकारम् अपगच्छति केवलं ह्रस्वरूपम् आगच्छति लक्ष्मीः इति पदं सम्बोधनं कुर्मः चेत् हे लक्ष्मी इति भवति इत्युक्ते विसर्गः अपगच्छति अपि च दीर्घरूपं ह्रस्वरूपं भवति अनन्तरम् अग्रिमं पदमस्ति अम्बा अम्बा इत्युक्ते माता एव परन्तु मातापदस्य सम्बोधनरूपं भिन्नं अम्बाशब्दस्य सम्बोधनरूपं भिन्नम् अत्र केवलं सर्वे पश्यन्तु सीता इति पदस्य रूपं सीते भवति परन्तु अत्र अम्बा इति पदस्य रूपम् अम्बे इति न भवति सर्वे अवगच्छन्तु अत्र पदम् आकारान्तपदम् अम्बा इति पदम् आकारान्तपदं परन्तु अत्र सम्बोधनारूपं केवलम् अम्ब ह्रस्वरूपम् आगच्छति अन्तिमं पदं किं महोदय
मातः
अत्र पश्यन्तु माता इति पदं ऋकारान्तपदं परन्तु स्त्रीलिङ्गपदं पिता इति पदं ऋकारान्तपदम् अपि च पुंलिङ्गपदं माता इति पदं ऋकारान्तपदं परन्तु स्त्रीलिङ्गपदम् इति कृत्वा अत्र मातः इति सम्बोधनारूपम् अत्र सम्बोधनारूपाणि एतादृशरीत्या भवन्ति इति वयं जानीमः अग्रिमे पुटे एकः अभ्यासः अस्ति सर्वे गृहपाठरूपेण तम् अभ्यासं कुर्वन्तु. अत्र एतानि पदानि एकवारं दृष्ट्वा अत्र कथं लेखनीयं, कथं वक्तव्यम् इति एकवारं चिन्तयित्वा अग्रिमम् अभ्यासं सर्वे कुर्वन्तु. अधुना कालातीतः अभवत्, अग्रिमे सप्ताहे वयं पुनः अत्र एकवारं मिलित्वा नष्टः पिष्टघटः इति कथां पठिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः, शुभरात्रिः.
धन्यवादः भगिनि.
सर्वे ध्वनिमुद्रणं शृण्वन्तु एकवारं.
धन्यवादः
भगिनि.
धन्यवादः
भगिनी.